भगवद गीता एज इट इज चैप्टर 3। न कर्मानाम अनारंभान नैष्कर्मां पुरुषम अश्नुते न चासन्नासनादेव सिद्धिं समधिगच्छति न हि कर्चित् खनमपि जातु तिष्ठति अकर्मकृत् कज्जते हि अवशो कर्म सर्व प्रकृतिर्जयिग्नैः। कर्मेन्द्रियाणि संयम्य जास्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचार स उच्यते। जस्तु इन्द्रियाणि मनसा नियमारभते अर्जुन कर्मेन्द्रियै कर्मयोगम् अशक्त सविशिष्यते। नियतं कुरु कर्म तं कर्म जय हि अकर्मणः शरीरयात्रापि च ते न प्रसिद्धेद अकर्मणः। जगार्थात् कर्मण अन्नत्र लोकोयं कर्म बंधन तदर्थं कर्म कौन्तेय मुक्त संग समासर सहजगा प्रजा श्रेष्ठा पुरवाच प्रजापति अनेन प्रश विश्वधम ऋषभवतिष्ठ कामधु। इष्टान् भोगान् हिवो देवा दशन्ते जगभाविता त्वयि दत्ता न प्रदायेभ्य जो भुङ्क्तेस्ते न एव स जगाशिष्टासिना सन्त मोचन्ते सर्वकिल्विषयि भञ्जते तु अघं पापा जे पचन्ति आत्मकारणा अन्नाद् भवन्ति भूतानि अन्नाद् भवन्ति भूतानि पर्जन्नादन्न सम्भवा जगद् भवन्ति पर्जन्त जगकर्म समुद्भवः। एवं प्रवृत्तिदं चक्रहं नानुवर्तयति अजा अघायुरिन्द्रिय राम मोघं पार्थ सजीवति। जस्तु आत्मा रतिरेव सैद् आत्मतृप्तस्य मानवः आत्मनि एव च सन्तुष्टा तस्य कार्यं न विद्यते। यज्जदाचरति श्रेष्ठ तत्तदेव इतरो जनः स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते। न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानावाप्तम् अवाप्तव्यं वर्त्म एव च कर्मणि। उषिदेयुरिमे लोका न कुर्यात् कर्म चेदहम् शङ्करस्य स कर्ता स्यात् उपहर्णामि मा प्रजा। न बुद्धिभेदं जनायेत् अज्ञानं कर्मसङ्गिनां जसये सर्व कर्माणि विद्यां युक्त समाचरन् प्रकृते क्रियमानानि गुणै कर्माणि सर्वशः अहंकारो विमूढात्मा कर्ताहमिति मन्यते। तत्त्ववित्तो महाबाहो गुणकर्म विभागय गुणागुणेषु वर्तन्त इति मर्तन सज्जते। मयि सर्वाणि भूतकर्माणि संनश्वद्धात्मचेतसा निराशीर्निर्मम भूत्वा युद्धस्य विगतो जरः। श्रेयान् सधर्म विगुणः परोधर्मात् सनुष्ठितात् सधर्म निधनं श्रेयो परोधर्म भयावह। श्रीभगवान् उवाच कामो एष क्रोधो एष रजगुणसमुद्भवः महाशन महापाप्मा विद्येनामिह वैरिणाम्। आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेय दुष्पुरेण नलेन च। इन्द्रियाणि मनोबुद्धिरस्याधिष्ठानमुच्यते यतैरपि महत्येष ज्ञानमवृतदेहिनां। तस्मात् तम् इन्द्रियान्यादौ नियम भरतर्षभ पाप्मानं पुजाहियेनं ज्ञान विज्ञाननाशनम्। इन्द्रियाणि परन्नाहु इन्द्रियेभ्यो परं मनः मनसस्तु परा बुद्धिर्जो बुद्धे परतोऽस्तु सा।